प्रथमः स्कन्ध अथ नवमोऽध्याय युधिष्ठिर आदि का श्री भीष्म जी के पास जाना और भगवान श्री कृष्ण की स्तुति करते हुए भीष्म जी का प्राण त्याग करना। श्री सुत उवाच इति भीतः प्रजा द्रोहा सर्वधर्म विवित्सया ततो विनशनम प्रागाद्यत्र देवव्रतोपतत् तदा ते भ्रातरः सर्वे सदस्वैः स्वर्णभूषितैः अनुगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा भगवानपि विप्रर्षे रथेन सधनञ्जयः सतैर्व्यरुचत नृपः कुबेर इव गुह्यकैः दृष्ट्वा निपतितम् भूमौ दिवस्युत्मिवामरम् प्रणेमुः पाण्डवा भीष्मम् सानुगाः सह चक्रिणा तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम राजर्षयश्च तत्रासन् द्रष्टुम् भरतपुङ्गवम् पर्वतो नारदो धम्यो भगवान् बादरायणः बृहदस्वो भरद्वाज सशिष्यो रेणुकासुतः वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोषितः कक्षिवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो मलः शिष्यैरुपेत आजन्मुः कश्यपाङ्गिरसादयः तान् समेतान् महाभागानुपलभ्य वसुत्तमः पूजयामास धर्मज्ञो देशकालविभागवित् कृष्णम् च तत्प्रभावज्ञ आसीनम् जगदीश्वरम् हृदिस्थम् पूजयामास माय्योपात विग्रहम् पाण्डुपुत्रानुपासीनान् प्रश्रय प्रेम संगतान् अभ्याचष्टानुरागाश्रय अन्धीभूतेन चक्षुषा अहो कष्टमहो न्यायम् यद्यूयम् धर्मनन्दनः जीवितुम् नार्हथ क्लिष्टम् विप्रधर्माच्युताश्रयः संस्थिते तिरथे पाण्डौ पृथा बाल प्रजाबधु जुष्मत्कृते बहुन् क्लेशान् प्राप्ता तोकवती मुहुः सर्वम् कालकृतम् मन्ये भवताम् च जदप्रियम् सपालो यद्वशे लोको वायोरिव घनावलिः यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः कृष्णोऽस्त्री गाण्डिवम् चापम् सुहृत् कृष्णस्ततो विपत् न ह्यस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपिः तस्मादिदम् दैवतन्त्रम् व्यवश्य भरतर्षभ तस्यानुविहितो नाथा नाथ पाहि प्रजा प्रभो एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् मोह्यन् मायालोकम् गूढश्चरति वृष्णिषु अस्यानुभावम् भगवान् वेद गुह्यतमम् शिवः देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप यम् मन्यसे मातुलेयम् प्रियम् मित्रम् सुहृत्तमम् अकरोः सचिवम् दूतम् सहृदादथ सारथिम् सर्वात्मनः समदृशो यद्वयस्यानहम् कृतेः तत्कृतम् मतिवैषम्यम् निर्वद्यस्य न क्वचित् तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् जन्मेऽंस्त्यजतः साक्षात् कृष्णो दर्शनमागतः भक्त्यावेश्यमनो यस्मिन् वाचा जन्नाम कीर्तयम् त्यजन् कलेवरम् योगी मुच्यते कामकर्मभिः स देवदेवो भगवान् प्रतीक्षताम् कलेवरम् जावदिदम् हिनोम्यहम् प्रसन्नः सारुणलोचनोल्लसन्मुखाम् भुजो ध्यानपथश्चतुर्भुजः श्रीसुत उवाच युधिष्ठिरस्तदा कर्ण्यशयानम् सरपञ्जरे अपृच्छद् विविधान् धर्मान् ऋषीणाम् चानुशृण्वताम् पुरुषस्वभावविहितान् यथा वर्णम् यथाश्रमम् वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान् दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः स्त्रीधर्मान् भगवद्धर्मान् समास व्यासयोगतः धर्मार्थकाममोक्षांश्च सहोपायाञ्जथा मुने नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् धर्मम् प्रवदतस्तस्य स्वकालः प्रत्युपस्थितः। यो योगिनश्चंद मृत्युर्वांछितस्तुत्तरायण तदोपसंहृत्य गिरः सहस्रणी विमुक्त संगम मनयादि पुरुषे कृष्णे लसत पीतपटे चतुर्भुजे पुरा स्थिते मिलित दिग्व्यधारय विशुद्धया धारणया हता शुभ तदीक्षयैवाशुगता युधव्यथ निवृत्त सर्वेन्द्रिय वृत्ति विभ्रम तुष्टावजन्यम विसृजन जनार्दनम। श्री भीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुंगवे विभुम्नि स्वसुखमुपगते क्वचिद् विहर्तुम् प्रकृतिमुपेयुषि जद्भव प्रवाह त्रिभुवन कमनम तमाल वर्णम रविकर गौरवराम्बरम दधाने बपुरलक कुलावृतानाब्जन विजय सखे रतिरस्तु मे न वद्या युधि तुरग रजो विधुम्र विश्व कचलुलित श्रमवार्जलम कृतास्ये मम निशित शरैर्विभिद्यमान त्वच विलसत कवचेस्तु कृष्णयात्मा सपदि सखि वचो निशम्य मध्ये निज परयोर्बलयोरथम् निवेश्य स्थितवती पर सैनिकायुरक्षणा हृतवति पार्थ सखे रतिर्ममास्तु व्यवहित प्रीतना मुखम् निरीक्ष्य स्वजन बधाद विमुखस्य दोष बुद्ध्या कुमति महरदात्म विद्यया यस् चरण रति परमस्य तस्य मेस्तु स्वनिगम अपहाय मत प्रतिज्ञाम ऋतमधिकर्तुम वप्लुतो रथस्थ धृतरथ चरणो भया चलद गुरु हरिरिव हंत विभम गत्तोत्तरीयः शित विशिख हतो विशीर्ण दंश छतज परिप्लुत आततायिनो मे प्रसभम अभिशसार मद्बधार्थम सभवतु मे भगवान गतिर्मुकुंदः विजय रथ कुटुंब आततोत्रे धृत है रश्मिनी तच्छ्री एक क्षणीये भगवती रतिरस्तु मे मुमूर्षुर जमिह निरीक्ष्य हता गतः स्वरूपम् ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानः कृतमनुकृतवत्य उन्मदांधः प्रकृतिमगन किल जस्य गोपबद्ध्वः मुनिगण निरपवर्ज संकुलेन्तः सदसि युधिष्ठिर राजसूय येषाम् अर्हणमुपपेद इक्षणीय मम दृशि गोचर एषया वीरात्मा तमिमा महमजम शरीर भाजाम हृदय हृदय धिष्ठितम आत्मकल्पितानाम प्रतिदृशमिव नैकर्धार कमेकम समधिगतोस्मि विधूत भेदमोहः। सुत उवाच कृष्ण एवं भगवती मनो वाग्दृष्टिवृत्तिभिः आत्मन्यात्मानमाविश्य सुन्तः श्वासौ पारमत् सम्पद्यमानमाज्ञाय भीष्मम् ब्रह्मणि निष्कले सर्वे बभूवुस्ते तुष्णीम् वयांसीव दिनात्ययी तत्र दुन्दुभयो ने दुर्देव मानव बाधितः सशंसु साधवो राज्ञाम् खात्पेतुः पुष्पवृष्टयः तस्य निर्हरणादीनि सम्परे तस्य भार्गव युधिष्ठिरः कारयित्वा मुहूर्तम् दुःखितोऽभवत् तुष्टुगुर्मुनयो हृष्टा कृष्णम् तद्गुह्य नामभिः ततस्ते कृष्णहृदया स्वाष्ट्रमान् प्रययुः पुनः ततो युधिष्ठिरो गत्वा सः कृष्णो गजाभयम् पितरम् सान्त्वयामास गान्धारीम् च तपस्विनीम् पित्रा चानुमतो राजा वासुदेवानुमोदितः चकार राज्यम धर्मेण पितृपैतामहं विभु। इति श्रीमद्भागवते महापुराणे परमहंस्याम संहितायाम प्रथमस्कंधे युधिष्ठिर राज प्रलम्भो नाम नवमो अध्याय। हरे कृष्ण हरे कृष्ण।